మామిమం పీభమధూమంతం చమోషుతం
అస్మేరయం విధారయ విభోమదే సహస్రణం పురూవసో వివక్షసే త్వాం యజ్ఞేభిరుక్తైరుగహవ్యేభిరీమహే సచీపతే సచీనాం విభోమదే శ్రేష్టం నోధేహి వార్యం వివక్షసే యస్పతిర్వార్యా నామసీరధ్రస్య చోదితా ఇంద్రస్తోత్రీణామావిదా విభోమదే ద్విషో నః పాహ్యం హసో వివక్షసే ఇమం చక్రామాయా వినా సమీచీనిరమంథతం విమదేన యదీలితానాసత్యా నిరమంథతం విశ్వే దేవాగ్రపంత సమీచ్యోన్నిష్పతం త్యోః నాసత్యావబ్రువం దేవా పునరావహతాదితి మధుమన్మే పరాజనం మధుమత్పునరాజనం తానో దేవా దేవతయాయుగం మధుమతస్కృతం భద్రం నో అపివాతయమనో దక్షముదక్రతుం అథాదే సఖ్యే అంధసో విభోమధేరణం గావోనయవసే వివక్షసే హృది ప్రశస్తాసతే విశ్వేషు సోమధామాసు అధారామా ఇమే మమ విభోమదేవి తిష్టంతే వసూయవో వివక్షసే ఉత వ్రతామి సోమతే ప్రాహమ్మీనామి పార్క్యా అధాపి దేవసూనవే విభోమదే మృళానో అభిజిద్వధార వివక్షసే సమో ప్రయంతి సర్గాసోవతాం ఇవ కృతం న సోమ జీవసే విభోమదే ధారయా తమసాం ఇవ వివక్షసే తవత్యే సోమశక్తిభిర్నికామాసోభిర్ంగిరే రిత్సస్య ధీరాస్తపసో విభోమదే వ్రజం గోమంతమశ్వినం వివక్షసే పశుమ్న సోమ రక్షసి పురుద్రావిష్ఠీతం జగత్ సమాకృణోషి జీవసే విభోమదే విశ్వాసంభస్యన్భువనా వివక్షసే త్వన్న సోమ విశ్వతో గోపాదాభ్యో భవ శేషరాజన్నపసృథో విభోమదే మానో దుశ్శంస జీషతా వివక్షసే త్వన్న సోమ శుక్రతుర్వయోధేయాయ జాగృహి క్షేత్రవిత్త రోమనోషో విభోమదే ద్రుహోన పాహ్యం హసో వివక్షసే తున్నో వృత్రహంతమేంద్రస్యేందో శివ సఖా యత్సీంహవంతే సమిచే విభోమదే యుధ్యమానా శోకసాతౌ వివక్షసే అయం ఘసతు రోమద ఇంద్రస్య వర్ధత ప్రియః అయం కక్షీవతో మహో విభోమదే మతిం విప్రస్య వర్ధయద్వివక్షసే అజం విప్రాయ దాసుషే వాజాం యత్తి గోమతః అయం సప్తభ్య ఆవరం విభోమదే ప్రాంధం శ్రోణం చ తారిషద్వివక్షసే ప్రహ్యచ్ఛామనీషా స్పార్హయంతీనియుతాః రదస్రానియుద్గత పూషా విష్ణుమాహీనః యస్యత్యన్మహిత్వం వాతాప్యమయం జనాః విప్రావం సద్ధీతిభిష్టికేత సుష్టుతీనాం సవేద సుష్టుతీనామిందుర్న పూషా వృషాః అభిప్సుర పృషాయతి వ్రజం నారూషాయతి వయమస్మాకం దేవపూషన్ మతీనాం సాధనం విప్రాణాం చాధవం ప్రత్యర్థిర్యజ్ఞానామశ్వహజోరథానాం నిర్షిసయో మనుర్హితో విప్రస్య యావయత్సఖః ఆధీషమానాజాః పతిశ్రుచాజాశ్చ శుచస్య చ వాసో వాజో వీనామా వాసాం సిమర్మృజత్ హినో వాజానాం పతిరిణః పుష్టీనాం సఖాః రస్మశ్రూహర్యతో దూధో ద్విరథాయో అదాభ్యః ఆ తే రథస్య పూషన్న జాధురం వవృజ్యుః विश्वस्याथिनः सखा समोजानपच्युतः अस्माकमूर्जारथम् पूरा विष्णुमाहीनः भुवद्वाजानाम् हृदयिमम् न शृणबद्धवम् असत्सु मे जरितः साभिवेगो यत्सन्वते यजमानाय शिक्षम् अनाशीर्दामहमस्मि प्रहन्ता सद्यद्रुथम् मृजनायन्तमाभुम् यदीयहम् विधये सन्नयान्यदेवयोन्तन्वा आशोऽसु जानान् अमादेतुम् ब्रह्मृढभम् पचानि तीव्रम् सुतम् पञ्चदशम् निषिञ्चम् नाहम् ब्रह्मेदय इति ब्रवीत्य देवयोन्समरणे जघन्वान् यदाख्यः समरनमृगावदाभिद्ध मे वृषभा प्रब्रुवन्ति यदज्ञादेषु वृजनेष्वासम् विश्वे सतो मघवानो मासन् जिनामिवेक्षेमासन्तमाभुम् मृतम् क्षीणाम् पर्वते पादगृह्य न वा भुमाम् वृजने वादयम् तेन पर्वतासोजदहम् मनस्ये मनस्वनाकृधिकर्णा भजात ये वेदनद्योन्किरणः समेजात् दर्शन्वत्र श्रुतपानिन्द्रान् बाहुक्षतः सर्वेपत्यमानान् घृषम् रायेणि निजुःसखायमध्योन्वेषु पवयो ववृत्युः पूर्वौ क्षीर्व्योरायोरानद्दर्शन्न पूर्वो अपरो नुदर्शत् देवहस्ते परितम् न भूतो यो अस्य पारे रजसो विवेश लाभोजवम् ऋयूता हर्यो अक्षन्ता पश्यम् सह गोपाश्चरन्तीः हवायर्यो अभिजः समायङ्गियदा सुस्वपतिच्छन्त जाते संयद्वयम् जपसादो जनानामहम् जपाद पूर्वज्रे अन्तः अत्रा युक्तो वसादारमिच्छादतो अयुक्तम् युनजद्वनवान् अत्रे तु मेणंसे सत्यमुक्तम् द्विपाच्च यच्चतुष्पात्सम् सृजानि श्रीभिर्यो अत्र वृषणम् वृतन्यादयुद्धो अस्य विभजानि वेदाः यस्या रक्षादुहितादात्वा सहस्ताम् विद्वान् अभिमन्याते अन्धाम् कतरो मेनिम् प्रतितम् मोचा तेजयीम् वहा तेजयीम् भावरेयात् कियतीयोषामर्यतो वधूयोः परिप्रीतापन्यसावार्येण भद्रावधोद्भवति यत्सुपे सा स्वयम् सा मित्रम् वानुतेजनेषित् पत्रो जगारप्रत्यम् च मत्तिशीर्षासिरप्रतिदधौ वरूथम् आसीनभूर्ध्वामुपशिक्षिणादिन्यम् उत्तानामन्वेति भूमिम् गृहन्नच्छायो अपलासो अर्वातस्थौ माता विषीतो अत्तिगर्भाः अन्यस्या वत्सम् रेहतीमीमायकया भुवानि दधे धेनुरुधाः सप्तवीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्निहन्ते नव पश्चादास्य विमन्त आयन्तसत्प्राक्सानुवितीरन्त्यस्माः दशानामेकम् कपिलम् स मानम् तम् हिन्वन्ति क्रवेपार्याय गर्भम् माता सुधीरम् रक्षणा स्ववेनन्तम् तुषयन्ति बिभर्ति जीवानम् मेषमपचन्त वीरान्योक्ता अक्षा अनु जीव आसन् वाधनम् बृहतीमप्सा अन्तः पवित्रवन्ता जनतः पुनन्ता विक्रोशनासो विश्वम् चायन्पचाति नेमो न हि पक्षदर्धः अयम् मे देवस्य विदा ददा हन्त्रन्नैत्वनवत्सर्पिरन्नः अपरस्यम् ग्रामम् वहमानमारात चक्रया स्वधया वर्तमानम् शिरक्तर्य प्रयुगाजनानाम् सद्यस्यस्ना प्रविनानो नवीयान् एतौ मे गावोः प्रमरस्य युक्तौ मोषु प्रसेधीर्मुहुरुन्नामन्धि आपस्थितस्य विना सन्त्यर्थम् शूलश्चमर्कमुपारो बभूवान् अयम् यो वज्रः पुरुधा विरुद्धोमः सूर्यस्य बृहतः पुरीषात् श्रवजितेनापरो अन्यदस्ति तदव्यधीय रिमानस्तरन्ति वृक्षे वृक्षे नियतामीम यद्योस्ततो वयः प्रपदान् पूरुषादाः अथेरम् विश्वम् भुवनम् भयात इन्द्राय सुन्वदृषाय च शिक्षते देवानाम् माने प्रथमा तिष्ठन् कृन्दत्रादेशामुपादाबुदायन् त्रयस्तपम् दीर्थिवीनानूपा द्वाभूकम् वहतः पुरीशम् सादे जीवातु रुततस्य विद्धिमास्मै तादृगपगूहस्समर्ये आविश्वः कृणुते गूहादे भुसं सबादुरस्य निर्मिजो न मुच्यते विश्वोह्यान्यो अरिरा जगाम मम मेदहस्वसूरो न जगाम यक्षीयाद्धानाभुत सोमम् प्रदीयात् स्वासितः पुनरस्तम् जगायात् सरोरोभद्रडभस्तिग्मशृङ्गोपष्पन्तस्थौ वरीमन्ना पृथिव्याः विश्वेश्वेनम् मृजनेषु पामियो मे कुक्षी सुतसोमः प्रणाति अद्रीनाते मन्दिना इन्द्रतूयाम् सुन्वन्ति सोमान् विवासि त्वमेषाम् अचन्ति ते वृषभाम् अर्थि तेषाम् वृक्षेण जन्मघवन् भूयमानः इदम् सुमे जरितराजिगिद्धि प्रदीपम् शापम् नद्यो वहन्ति लोपासः सिंहम् वृत्यम् च मत्साः क्रोष्टावराहम् निरतक्तकक्षात् कथादेतदहमाचीकेतम् व्यत्सस्य पाकस्तपसो मनीषाम् त्वम् नो विद्वान्तुथा विवोचोऽयमर्धम् ते मघवन् क्षेम्याधूः एवाहि माम् तपसम् वर्धयन्ति दिवश्चिन्मे बृहदगुत्तराधूः पुरोसहस्रायिषीतामि साकमशत्रम् हिमाजनीता जजान एवाहि माम् तपसम् विज्ञरुग्रम् वर्मन् कर्मन् वृषणमिन्द्रदेवाः वधीम् वृत्रम् वज्रेण मन्दसानोपव्रजम् महिना दासुषेवम् देवास आजन्परसोऽङ्ग्रविभ्रन्मना वृष्टन्तो अभिभिराजन् सद्वा अन्दधतो भक्षणा सुयत्रा कृपीडमनुदद्दहन्ति ससः क्षरम् प्रत्यञ्जम् जगाराद्रिम् लोकेन व्यभेदमारात् बृहन्तम् चिदृहतेरम् दयानि वयद्वत्सो वृषभम् सुषुभानः सुवर्णयिच्छानकमाशीषायावरुद्धः परिवदम् न सिंहः निरुद्धस्तिन्वयिडस्तर्श्यावान् बोधा तस्मा अयसम् कर्षदेतत् तेभ्यो गोधा अयसम् कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः सिंहमुक्ष्मारदृष्टादन्ति स्वयम् बलानि तन्वसृणानाः एते समेभिः सुसमे अभूभञ्जेहिन्विले तन्वा अस्तोमभुक्तैः विवद्वदन्नुपानो माहिमाजाम् दिविश्रवो दधिषे नाम वीरः वनेन वायोन्यधायि साकञ्चिर्वान् सोमोभुरणावजीगः यस्येदिन्द्रः पुरुदिनेषु होदा नृणान्नर्यो नृतमः क्षपावान् प्रते अस्यावृषध प्रापरस्या नृतौ स्यामनृतमस्य नृणाम् अनुत्रिशोकस्वतमावाहन्द्रेन् कुत्सेनरथोजो असत्सवान् कस्ते मद इन्द्ररन्त्यो भोद्दुरोगिरो अभ्यो उग्रो विधाव कर्माहो अर्वागुहमामनीषा त्वा सत्यामुपमम् राधो अन्नैः ्रस्त्वावतोन्द्रेन्द्रया धियाकारसे कन्नागन् मित्रो न सत्यपूर्वाय भृत्यान्ये समस्यजसन्मनीषाः प्रेराय सूरो अर्थन्न पारम् जे अस्य कामम् जनिषादिभग्मन् गिरश्च एते द्विजातपूर्वीर्नर इन्द्रप्रतिशिक्षन् जन्मैः मा तेनु ते सुमीते इन्द्रपूर्वीर्जौर्मज्मना पृथिवी काव्येन परायते घृतवन्तः सुदासस्वाद्मन् भवन्तु पीतजे मधूनि आमध्वो अस्माभिजन्नमत्रमिन्द्राय पूर्णम् दहि सत्यराधाः सवावृधे परिमन्नाभिशिव्याभिक्रत्वा नर्यः पौंसैश्च ज्ञानरिन्द्रप्रदानास्वो जास्मै यदम् ते सख्याय पूर्वीः आस्मारसन्नप्रदानासु तिष्ठजम् भद्रजासु मत्याशोदजासे ्रा ब्रह्मणे गादुरे त्वपो अच्छामनासो न प्रयुक्ति महीम् मित्रस्य वरुणस्य धासुम् पृथुद्रजा शेरीरधासु वृत्तिम् अध्वर्यवो हविष्मम् दोहि भूताच्छावजीतो सतीरुसङ्गः अवयाश्चष्टे अरुणस्सु वर्णस्तमाश्चध्वमूर्मिमध्यासु हस्ताः अध्वर्यभोपजीता समुद्रमपान्नपादम् हविषाय जध्वम् सबोदनभूर्मिमध्यासुभूतम् तस्मै सोमम् मधुमन्तम् सुनोत यो अनिध्मोदीताय दत्स्वा अन्तर्यम् विप्रासयीरते अध्वरेषु अपान्नपान्मधुमतीरवोदायाभिरिन्द्रो वा भृते वीर्याय सोमो मोदते हर्षते च कल्याणीभिर्युपतिभिर्नमर्याः ताध्वर्यो अवो अच्छापदे हि यदा सिञ्चावोषाधीभिः पुनीतात् ूने युवतयो नमन्त्रयदी मुसन्नो सदीरेत्यच्छ सन्दानदेवनसा सञ्चीकृत्वे ध्वजवोऽधिषणापश्च देवीः यो वोदाभ्यो अग्रणोतु लोकम् यो वो मह्याभिधस्ते न मुञ्चत् तस्मायिन्द्राय मधुमन्दमूर्मिम् देहमादनम् प्रहीनोदनापः तास्मै नोदमधुमन्दमूर्मिम् गर्भोजो वस्यन्द्रभो मध्वमुत्साह कृतपृष्टवेज्यमध्वरेष्वापो देवीश्वृणुताहम् मे संसिन्धवो मत्सरमिन्द्रपानमूर्मिम् प्रहेतयुभेयति मरच्युतमौषानम् न भोजाम् परित्रदन्तम् विकरन्तमुत्समम् आरुर्वेदधीरधनुद्विधारा घोषयुभो नीयमम् चरन्तीः ेजमित्रेर्भुवनस्य पत्नीरपोन्दस्वसमृधस्वयोनीः हिनोदानो अध्वरम् देव यज्ञाहिनोद ब्रह्म समयेधनानाम् ऋतस्य योगे विश्यध्वमोदः सृष्टिवरेर्भूतनास्मभ्यमापः आपोरेवतीः क्षयधाहिव स्वकृतम् च भद्रम् बिभृतामृतम् च राजस्तस्तस्वभक्तस्य पत्नी सरस्वती तद्वीणते वयोधात् प्रलयदापो अदृश्यमायतीर्भृतम् मृजांसि बिभ्रतीर्मधूनि अध्वर्यभिर्मनसासं विदारा इन्द्रायसो वंसुरोतं भरन्तीः
एमाग्मन् देवदेवधन्याध्वर्यवस्तादयदासखायः
निवर्षिषे सत्तनसोम्या सोपां नत्रा संविधाना स येनाः आत्मन्नापुषतेर्भरिहेरञ्जरेरासनन्दे भयन्तीः अध्वर्यवस्सुमतेन्द्रायसो मम भूदुवस्सुमकारेव यज्ञा आनो देवानामुपवेदसं सो विश्वेभिस्तुरैरवशे यजत्रः तेभिर्वयम् सुषखायो भवे मतरम् तो विश्वादुरिदास्याः परिचिन्मर्तो द्रवीणम् मनन्यादस्य पदानमसावीवासे उदस्येन क्रतो भ्रासंवादे दश्रेयाम् सन्दक्षम् मनसा जगृभ्यात् अधायिधीतिरसग्रमंसास्तेन दस्मौपायन्तुवाः अभ्यानश्मदुर्यस्य सूषम् न वेदसो अमृता नाम भूम नित्यश्चाकन्यात्सवजर्दमो नागस्मा भूदेवस्य पिता जजान भगो भागोभिरर्यमेव नज्जासो अस्मै चारुशलयधृतस्यात् यम् सा भूया भुषसामि वक्षा यद्भ्रक्षुमन्तः सवसा समायन् अस्य श्रुतिम् च ऋतुर्भिक्षमाणानः सग्मा स उपायन्तु वाजाः अस्येदेशाप्रसाना भवत्पूर्या भूमानागौः अस्य समीरासूरस्य योणौ समानः भरणे बिभ्रमाणाः किं सेत्वरङ्गवसरक्षासयतोद्यावा पृथिवी निष्टदक्षुः सद्मनसाने अजरे इतौ धीयानि भूर्विरुषसो जरन्त नैरावदेना परो अन्यदस्त्युक्षा सद्यावा पृथिवी विभक्ति परम् पवित्रम् कृणः स्वधा भाग्यजीम् सूर्यम् न हरितो वहन्ति स्थेलो नक्षामत्येति पृथ्वीम् विहन्नवातो विहवाति भूम मित्रो यत्र वरुणो अद्यमानोऽग्निर्वणेन व्यसृष्टशोकम् शरीर्यसूत सद्यो अज्यमानाव्यतीरव्यतीकृतस्वगोपा पुत्रोयत्पूर्वः पित्रोर्जनिष्टसंज्ञाङ्गौजरारयद्धवृच्छान् पुरकण्वम् दृषदः पुत्रमाहुरुदस्यावोधनमादत्तवाजी कृष्णायरुसादमिन्वतोधर्वृतमतनकीरस्मापीपेत् प्रसुग्मन्दाधियसानस्य सक्षणी फलेभिर्वराम् अविलुप्रसीदतः अस्माकमिन्द्रभुभयम् जुजोषधि यत् सोम्यस्यान्धसोऽबोधति वीतयासि दिव्यानि रोचनानि पार्थी वा निरजसा पुरुष्टुत ये त्वावहन्ति मुहुरध्वराम् उपते सुवन्वधुवध्वराधसाः तदिन्मेच्छन् सर्वपुष्करम् पुत्रो यज्जानम् पित्रो दधीयति जायापतिम् वहति भग्नुना सुमत्पुंसयद्भद्रो वहतुः परिष्कृतः तदित्सदस्तमभिकारो दीदजगाभोरच्छासम् वहतन्नधेनवाः माता जन्मन्दुर्ज्योतस्य पूर्याभिमानस्य सप्तधा धृतिजनाः प्रवोच्छारिते वयुष्पदमेको रुद्रेभिर्व्यासि दुर्वणीः जराबालेष्वमृतेषु धामने परिबभूमेभ्यस्मिञ्च धामधु ीयमानवपागोलमत्सुप्रमे देवानाम् मृतपाहुवाच
इन्द्रो विद्वा चक्षते नाहमग्ने अनुसृष्टागा अक्षेत्रविक्षेत्रविदम् शब्रात् सप्रैतिक्षेत्रविदानुसृष्टः एतद्वै भद्रमनुशासनस्योतस्मृतिम् इन्द्रत्यञ्जसीनाः अद्येतु प्राणीतमन्निमाहाभिर्वृतो अभयम् मातुरूधाः देवे नमापतिमायुवा नमहे रन्वसुः सुमनाः बभूव एतानि भद्राकारसक्रियामगुरुश्रवणदतो मघानि दानयित्वा मघवानस्तो अस्त्वयम् दसोमा हृदयम् विभर्मि भद्रम् न अपि वादयमनाः हरिः ओ प्रमायुद्रे प्रयुजोजनानाम् वहा विश्वभूषणमन्तरेण इसे देवासो अधमा रक्षम् दुःसासुरागादिघोष आसीत् सम्मातपञ्चभितः सपत्नीरिवर्षवः निवासते अमादम् नग्नराजसुर्वेर्नवे दीयते मतिः मूरो न शिश्राव्यादन्ति भाद्यस्तोतारम् ते सरक्रतो सकृत्समामकवन्निन्द्रमृयाधापि देव नो भव रुस्रवनमावृणिराजानम् प्रासादस्यवम् मङ्गिष्टम् वागता वृषीः यस्य मा हरितो रथेः तिस्रो वहन्ति साधिका स्तवैः सहस्रदक्षिणे यस्य प्रस्वादसो गिरमुपमस्रवसत्पितुः क्षेत्रन्नरङ्गमोक्षे अधिपुत्रो भवस्रवो नवान्मित्रादिशेरिः विदृष्टे अस्ति वन्दिका यामृतानामुत वामत्यानाम् जीवेदिन्मघवाम न देवानामतिव्रतम् सदात्मा च न जीवति तथा युजाविवावृते प्रावे पामा बृहतो मादयन्ति प्रवाते जागिरिरे मर्वेदानाः सोमस्येव मौजपदस्य भक्षो विभीद गोजाग्रीभिर्मह्य मत्सान् नमामि मे तनजीहीर एषा शिवासखिभ्य उदमह्यमासीत् भक्षस्याहमेकवरस्य हेतोरणव्रतामपजायामारोधम् द्वेष्टि श्वश्रूरपजायारुणद्धिननाथितो विन्दते मद्भितारम् अश्वस्येव जरदोपस्यस्य नाहम् विन्दामि कृतवस्य भोगम् अन्ये जायाम् परिवृतम् यस्य यस्याग्रे धद्वेदने वाज्याक्षः पिता माता भ्रातरये न मा घुर्नजानि वो न जाता बद्धमेतम् यदा दीध्येन त विषाण्येभिः परायद्यो बाहीजे सखिभ्यः ोक्ताशभ्रभोवाशमक्रतम् येमिदेषाम् निष्कृतम् जारिणीव सभामेदिव पृच्छमानो जेष्यामीति तन्वा आसो सुजानः अक्षासो अस्य विदीरन्ति कामम् प्रतिदीर्णे दधतः कृतानि अक्षरशीलम् कुशिनो नितो दिनो निकृत्वा नस्तप नास्तापयिष्णवाः कुमारदेष्णाजयत पुनर्गतावद्वा संवृत्ता स्थितवस्य भर्गणाः त्रिपञ्चाशक्रेरतिव्रतजेषाम् देवजीव सविता सत्यधर्मा उग्रस्य जिह्मन्यवेनामन्ते राजाजितेभ्यो न भयित्कृणोति नीचावर्तम् तमुपरिस्फुरम् च हस्तासो हस्तवन्तम् सहन्ते दिव्याङ्गाराजिरिणेन्योक्ताः सीताः सन्तो हृदयम् निर्दहन्ति जायातप्यते कितवस्य हीना माता पुत्रस्य चरा दक्वास्विते ृणावाभिभ्यद्धनमिच्छमानोऽन्ये रामस्तमुपलक्तमेति श्रियम् दृष्ट्वाय किलवन्ततापान्येषाम् जायाम् सुकृतम् च योनिम् पूर्वाह्ने अश्वान्ये भद्रो सोऽग्नेरन्ते बृहणप्रपाद यो वस्येनानीर्मघतो गणस्य राजा व्रातस्य प्रथमो बभूव तस्मै शृणो विनधनारुणद्भिदसाहम् राजेस्तधृतम् वदामि अक्षयैर्मादीव्य कृषिमित्रेणस्वभित्तेरवस्व बहुमन्यमानः तत्र गावः कितव तत्र जाया तन्मे विचष्टे स विराजमर्यः मित्रम् गृणध्वम् खलु गृणता नो मानो घोरेण चरताभिधृष्णो निवो न मन्युर्विसतामरातिरन्यो बभ्रूणाम् प्रसीतौन्वस्तु अबुद्धबुद्धैन्द्रवन्तो अग्नयो ज्योतिर्भरन्तौषधो ज्योष्टिषु अयीद्या वा पृथिवी चेततामभोद्या देवानामभावृणीमहे दिवस्पृथिव्योरभावृणीमहे मातृन् सिन्धोन्पर्वताञ्छर्यनावतः अनागास्त्वम् सूर्यमुजासमीमहे भद्रम् सोमस्तुभानो अद्याकृणोतु नः नो अद्य पृथिवी अनागसो महीत्रायेताम् सुविदाय मातरा उषा उच्छन्त्यपबाधतामघम् सस्या अग्निम् संविधानमीमहे इयम् न वुस्रा प्रथमासु देव्यम् रेवत्समिभ्यो रेवतीर्गच्छतु आले मन्यम् दुर्भिदत्तस्य धीमहि स्वस्या अग्निम् संविधानमीमहे प्रियाशिश्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरम् ीरुषसोऽव्योष्टिषु भद्रानो अद्य श्रवसेऽव्युच्छत स्वस्या अग्निम् संविधानमीमहे अननैव उषदादरन्तु न उदग्नयो जिहताम् ज्योतिषा बृहत् आयुक्षादामश्विनातु जिम्रथम् स्वस्या अग्निम् संविधानमीमहे श्रेष्ठम् न अद्य सवितर्वरेण्यम् भागमासो वसैरत्रधासि राजोजयित्रेन्द्रियणामुपब्रुवे स्वस्या अग्निम् संविधानमीमहे पिवर्तमादृतस्य प्रवाचनम् देवानाम् जन्मनुष्या आमन्महि स्वस्या अग्निम् संविधानमीमहे अद्येषो अद्य बहिरस्तरीमणिग्राम्णाम् योगे मन्मानः साधयीमहे आदित्यानाम् सर्वनिष्ठा भूरण्यसि स्वस्या अग्निम् संविधानमीमहे आनो बर्हिः सधमादे बृहद्दिवि देवाङ्गीरे साधया सप्तहोत्रेण इन्द्रम् मित्रम् वरुणम् साधये भगम् स्वस्या अग्निम् संविधानमीमहे तादित्यागता सर्वदातये बृहेण यज्ञमवदासजोषसः बृहस्पतिम् पूषणमश्विनाभगम् स्वस्या अग्निम् संविधानमीमहे तन्नो देवायच्छदतु प्रवाचनम् शब्दिरादित्या सुभरम् कृपायम् अश्वे लोकायतनायाय जीवसे स्वस्या अग्निम् संविधानमीमहे इसिचे अद्य मरुतो विश्वभूति विश्वे भवन्त्वग्नयः समिद्धाः विश्वे नो देवावसागमन्तु विश्वमस्तद्रवीणम् वाजो अस्मे यम् देवासो वसमाज साधोऽयम् राजद्वेयम् विभृशात्यम् वाः यो वो भीषेण भयस्य वेदते श्यामदेववीतये पुराधः पुराधानक्ता बृहति सुवेदधाद्या वाक्षामावरुणा मित्रो अर्जमा इन्द्रम् भुवे मरुतः पर्वतापादित्या वा पृथिवी अपस्वाः योश्च न पृथिवी दप्रचेदसहृतावारी रक्षतामम् भासो हिरः माधुर्विदत्रा निर्वेतम् मयीष तदद्देवानामवो अद्यावृणीमहे विश्वस्मान्नो अदिदिप्पा त्वम् गातो माता मित्रस्य वरुणस्य देवताः स्वर्वज्योतिरविकम् नासीमहि तद्देवानामवो अद्यावृणीमहे ग्रावावदन्न परक्षाम् द्विते तद् दुष्वाप्यम् निर्वेदम् विश्वामत्रिणम् आदित्यम् शर्म मरुतामसीमहि तद्देवानामवो अद्यावृणीमहे येन्द्रो वर्यस्यैतृपिन्वदामिना बृहस्पतिः सामभिर्विक्वोऽर्चतु सुप्रकेतम् जीवसे मन्म धीमहि तद्देवानामवो अद्यावृणीमहे विस्मृतम् यज्ञमस्माकमस्विना धीराध्वरम् गृणतम् सम्नविष्टये प्राचीनरश्मिमारोदम् कृते तद्देवानामवो अद्यावृणीमहे उपक्वये सुभवमारोदम् गणम् पावकमृष्टम् सख्याय शम्भुवम् राजस्फोटम् सौस्रवसाय धीमहि तद्देवानामवो अद्यावृणीमहे अपाम्पेरम् जीवधन्यम् भरामहे देवाव्यम् सुभवमध्वरश्रियम् सुरस्मिन् सोमामिन्द्रियम् गीमहि तद्देवानामवो अद्यावृणीमहे सने मदत्सु सनिता सनित्वाभिर्वयम् जीवा जीवपुत्रा अनागसः ब्रह्मद्विषो विश्वकेनो भरेर तद्देवानामवो अद्यावृणीमहे ये स्थामनो यज्ञजास्ते शृणो तनयत्वो देवायीमहे तद्दधातः जैत्रम् कृतम् रहिमद्वीरवद्यसस्तद्देवानामवो अद्यावृणीमहे महदद्यमाहतामावृणीमहे वो देवानाम् बृहतामधर्मणाम् यशापसो वीरजातम् न सामहै तद्देवानामवो अद्यावृणीमहे महो अग्नेः समिधारस्य धर्मण्यागामित्रे वरुणे स्वस्तये श्रेष्ठे श्यामसविदुस्सवीमहि तद्देवानामवो अद्यावृणीमहे एष विदुःसत्यतमस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः एतौभागम् वीरभद्रो मदप्रोदधादनद्रवीरम् चित्रमस्मे सविता पश्चात्तात् सविता पुरस्तात् सविदोत्तरात्तात् सविता धरात्तात् सविदानः सुमधु सर्वदादिम् सविता नो राजताम् दीर्घमायुः नमो मित्रस्य वरुणस्य चक्षासे महो देवायतधृतम् स पर्यत दूरे देवजाताय केतवे दिवस्पुत्राय सूर्याय संसद सामा सत्योऽग्निपरिपातु विश्वतोद्यावा च यत्र तदनन्दहानि च विश्वमन्यन्निवेशते यदेजति विश्वाहो विश्वाहो देति सूर्याः न देहदेव प्रतिभो निवासते यदेशेभिपतरैरधर्यसि प्राचीनमन्यतनो वर्ततेरमुदन्येन ज्योतिरायासि सूर्य ज्योतिरापादसेतमो जगच्च विश्वमुदिर्षि भानुनाः ते आस्मद्विश्वामनि रामनाहुतिमपामि वामपदुष्वप्यम् विश्वस्थिप्रेषितो रक्षसिं प्रथमहेरयम् रक्षरसि स्वधानु यदद्यत्वा सूर्यो भद्रवामहेतन्नो देवानुमंसीरथक्रतुम् अनन्नाद्यावा पृथिवीतम् नापयिन्द्रश्रृण्वन्तु मरुतो हवम् वचाः मारुमे भूमसूर्यस्य संदृशि भद्रम् जीवन्तो जरणामासीमहि विश्वाहात्वा सुमनादत्सुरक्षसप्रजामन्तो अनमीवाहनागतः उद्यन्तम् प्रामित्रमहो दिवे दिवे ज्योग्धीवा प्रतिपश्येम सूर्य अयज्यो दर्भिभ्रातम् द्राविचक्षणभास्वम् तम् चक्रुभे चक्रुभे मयाः आरोहन्तम् मृगलः पादस्वरि भयम् जीवा प्रदीपस्येव सूर्य यस्य ते विश्वाभुवानानि केतुना प्रचेरतेन च विसन्दे अत्रुभिः अनागास्त्वेन हरिकेश सूर्यान्हान्हानोमस्य सावस्य सोधीः शर्णो भवचक्षसासन्नो अह्नासम् भानुनासम् हिमासम् घृणेन ध्वंसमसद्दुरोणे तत्सूर्यद्रवीरम् देवि चित्रम् अस्माकम् देवा उभयाय जन्माने धर्म यच्छ तद्विपदे चतुष्पदे दुर्जयमानमासीतम् तदस्मै संयोररपोदधातन यद्वो देवास्य कर्मजिह्वया गुरुमनसो वा प्रयूति देवहेलनम् अपरा वायो नो अभिरुच्छुरायसवो निधेतन अस्मिन्न इन्द्रवृत्सुतो यशस्वतिक्रन्दाभिप्रावसातये यदतरोषु खादिषु विश्वत्पदम् विद्यवो विषाह्ये सदाः श्रुवन्तम् सदनेभ्योर्निगो अन्नसं वयमिन्द्रश्रवायम् श्यामते जयदशक्रमेदि नायसा वयमुष्मसि तद्वसो गृहि यो नो दासार्यो वा पुरुष्टुदारे वयिन्द्रयुधजेतिकेतति अस्माभिष्टेश्वरः संसत्र वस्त्रया वयम् तान् वारियामसङ्गमे यो रभ्रेभिर्भव्यो यश्च भूरिभिर्यो अधीये वरिभोविन्द्रिषाह्ये संवीखादे तस्मि भद्रश्रुतम् नरमर्वान्द्रमिन्द्रमवासे करामहे स्वव्रजम् हित्वा महमिन्द्रसुस्रवानानुतम् रेषभरध्वजोदनम् प्रमञ्जस्वपरिगुत्सादिगाहिग्रिमुत्वा वान्मुष्कयोर्बद्धासते यो वाम् वरिद्वासुकृतस्विनारो रामुरासो हव्यो हविष्मता सस्वस्तमासस्तमो वामिदम् भयम् पितम् न नाम सुभवम् भवामहे चोदयतम् सोनृताप्यन्द्रतम् धियमुत्पुरम् धीरीरयतम् ददुष्मसि यजतम् भागम् क्रीडतम् नाश्विनासो मन्नकारम् अघवत्सुलस्कृतम् अमार्गश्चिद्भवतो जिवम् भगो नासोऽस्ति न विदारापमस्य चित् अन्धस्य चिन्नासत्याघृतस्य चिद्युवाविदाहृषजा हृदस्य चित् जिवम् सदानम् शनजम् यथारथम् पुनर्युवानम् सरसा यक्षतुः निष्ठौग्रमो हतुरभ्यस्वरि विश्वेत्ता भान्तवानेषु प्रवाच्या पुराणाम् वीर्या आप्रभ्रवाजनेशो घासदर्भिरजामयो भुवा तावान्नव्यापवासेकरामहेयम् नाः सत्यास्रधर्यथा दधत् ॐ